अथ द्वितीयः पादः सिचिवृद्धिः परस्मैपदेशो अतोल्रान्तस्य वदव्रजहलन्तस्याचः नेटि ह्यन्तक्षणश्वसजाग्रणिष्व्येदिताम् ऊर्णोतेर्विभाषा अतो हलादेर्लघोः नेड्वशीकृति तितुत्र तथसि सुसरकसेषु च एका च उपदेशेऽनुदात्तात् श्रुकः किति सनिग्रहगुहोश्च कृसृभृवृस्तुदृश्रुश्रुवो लिटि श्वीदितो निष्ठायाम् यस्य विभाषा आदितश्च विभाषाभावादिकर्मणोः क्षुब्धस्वान्तध्वान्तलग्नम् लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ता विस्पष्टस्वरा नायासभृशेषु धृशिशसी वैयात्ये दृढस्थूलबलयोः प्रभौ परिवृढः कृच्छ्रगहनयोः कषः घुषिरविशब्दने अर्देः सन्निविभ्यः अभेश्चाविदूर्ये नेरध्ययने वृत्तम् वादान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ऋष्यमत्वरसङ्घुषास्वनाम् हृषेर्लोमसु अपचितश्च हृह्वरेश्छन्दसि अपरिहृताश्च सोमेह्वरितः ग्रसितस्कभितस्तभितोत्तभितच्चत्तविकस्ताविशस्तृशंस्तृशास्त्रतरुतृतरूतृवरुतृवरूतृवरूत्री रुज्ज्वलिति क्षरिति क्षमिति वमित्यमितीति च आर्धधातुकस्येड्वलादेः स्नुक्रमोरणात्मनेपदनिमित्ते ग्रहो लिटि दीर्घः व्रूतो वा न लिङि सिचि च परस्मैपदेषु इट्सनि वा लिंसि चोरात्मनेपदेषु ऋतश्च संयोगादेः स्वरति सूति सूयति धूयूदितो वा रथादिभ्यश्च निरः कुशः इन्निष्ठायाम् तीशसः लुभरुषरिषः सनीवन्तर्धभ्रश्च दम्भुश्रिस्रुयूर्नुभरज्ञपि सनाम् क्लिशः क्त्वा निष्ठयोः पूनश्च वसति क्षुधोरिट् अञ्चेः पूजायाम् लुभो विमोहने जृव्रश्च्योः क्त्वि उदितो वा सेसिचिकृतच्रुतच्छ्रुदतृदनृतः गमेरिट् परस्मैपदेषु न वृद्भ्यश्चतुर्भ्यः तासि च क्लुपः अचस्तास्वत्थल्यनिटो नित्यम् उपदेशे त्वतः ऋतो भारद्वाजस्य बभूथा ततन्थजगृभ्मववर्थेति निगमे विभाषासृजिदृशोः इडत्यर्तिव्ययतीनाम् वस्वेकायाद्घसाम् विभाषागमहनविदविशाम् सनिं ससनिवांसम् रुद्धनोऽस्ये अंजे सिचि स्तुसुधूभ्यः परस्मैपदेशो यमरमनमातां सक्च स्मिपुंग्रञ्ज्वशां सनि किरश्च पञ्चभ्यः रुदादिभ्यः सार्वधातुके ईशस्से ईडजनोर्ध्वे च लिङः सलोपोऽनन्त्यस्य अतो येयः आतो ङितः आनेमुक् ईदासः अष्टन आविभक्तौ रायो हलि युष्मदस्मदोरनादेशे द्वितीयायाञ्च प्रथमायाश्च द्विवचने भाषायाम् योचि शेषे लोपः मपर्यन्तस्य युवावौ द्विवचने यूयवयौ जसि त्वाहौसौ तुभ्यमह्यौ ङयि तव ममौ ङसि त्वमावेकवचने प्रत्ययोत्तरपदयोश्च त्रिचतुरोस्त्रियां तिसृच तसृ अचिररुतः जरायाजरसंयतरस्याम् त्यदादीनामः किमः कः कुतिहोः क्वाति तदोस्सावनन्त्ययोः अदस औसुलोपश्च इदमोमः दश्च यस्सौ इदोय पुंसि अनाप्यकः हलिलोपः मृजेर्वृद्धिः अचोऽञिणिति अत उपधायाः तद्धितेष्वचामादेः किति च इति द्वितीयः पादः।